इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। पश्चिमबंगे भाजपा नेतृत्वे सर्वकारेण प्रथमं पूर्णं अर्थसंकल्पनापत्रम् उपस्थापितम्, यस्मिन् सामाजिक कल्याणम्, आधारभूत संरचना विकासम्, आजीविका सृजनम् समेत्य अनेकाः महिला केन्द्रित योजनाः सन्ति घोषिताः। सुरक्षा समाह्वानानां विषये चर्चयितुं नवदिल्ल्याम् अद्य ब्रिक्स राष्ट्रिय सुरक्षा परामर्शदातृणां सम्मेलनं समारब्धम्। आर्थिक सम्बन्धान् इतोपि सुदृढीकर्तुं विदेशमन्त्री डॉ एस जयशंकरः स्वकीयेन समकक्षेण सह चर्चार्थं मंगोलियादेशं सम्प्राप्तवान्। भारतीय ऋतुविज्ञान विभागेन अद्य असम मेघालय राज्ययोः कृते अतिवृष्टेः पूर्वानुमानं प्रकटितम्। अपि च अस्य वर्षस्य फीफा विश्वकप क्रीडायाम् अर्जेण्टीना दलम् अद्य रात्रौ अमेरिका देशस्य आर्लिंगटन नगरे ग्रुप जे क्रीडायाम् ऑस्ट्रिया दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। भाजपा नेतृत्वे पश्चिमबंग प्रशासनेन अद्य प्रवर्तमान वित्तीय वर्षस्य कृते स्वीयं प्रथमं पूर्ण अर्थसंकल्पनापत्रं प्रस्तुतम्। अस्मिन् पत्रे सामाजिक कल्याणम्, आधारभूत संरचना विकासम्, वृत्ति सृजनम् च महिला केन्द्रित योजनाः विशेषरूपेण प्राधान्यं प्राप्ताः सन्ति। बंगालस्य वित्तमन्त्री स्वपन दासगुप्ता 70,000,000,000,000 अर्थसंकल्पनापत्रम् उपस्थापयन् एतत् विकसित बंगाल निर्माणस्य मार्गचित्रमिति अवदत्। तेन स्पष्टीकृतं यत् राज्यस्य उपरि वर्तमानकालीनं ऋणम् 8,00,000,000,000,000,000 अस्ति। अतः वित्तीय अनुशासनम् अस्माकम् अत्यन्तं मुख्या प्राथमिकता अस्ति। अर्थसंकल्पनायाः प्रमुखासु घोषणासु विद्यते वृत्त्यावसराः। राज्ये रिक्त 1,00,000 सर्वकारीयपदेषु नियुक्तिं करिष्यते, यस्मिन् 50,000 आरक्षकपदानि तथा 50,000 शिक्षकपदानि सम्मिलितानि सन्ति। एतेषु रिक्तेषु पदेषु 33% स्थानं महिलाभ्यः आरक्षितं भविष्यति, सहैव 10% अतिरिक्त आरक्षणम् अग्निवीरेभ्यः निर्धारितं कृतम्। नवदिल्ल्यां ब्रिक्स संघटनस्य राष्ट्रिय सुरक्षा परामर्शदातृणां द्विदिवसीयोपवेशनम् अद्य समारब्धम्। भारतस्य राष्ट्रिय सुरक्षा परामर्शदात्री अजीत डोभालस्य अध्यक्षतायां प्रचलन्त्याम् अस्यां गोष्ठ्याम् अस्य समूहस्य 11 सदस्यदेशानां सुरक्षाप्रमुखाः भागं भजन्ति। एतेषु सदस्यदेशेषु भारत, ब्राजील, चीन, मिस्र, इथियोपिया, इण्डोनेशिया, ईरान, रूस, सऊदी अरब, दक्षिण अफ्रीका तथा संयुक्त अरब अमीरात सम्मिलिताः सन्ति। अवधेयं यत् 26,000,000,000 भारतेन चतुर्थं वारं ब्रिक्स संघटनस्य अध्यक्षता प्राप्ता अस्ति, यस्य अन्तर्गतम् एव एतत् आयोजनं सम्भवति। अजीत डोभाल अद्य ईरान देशस्य SNSC संस्थायाः रक्षा विषयक उपसचिवेन गदीर निजामीपुर इत्यनेन सह द्विपक्षीय मन्त्रणां कृतवान्। विदेश मन्त्रालयस्य अनुसारं उभयपक्षतः पश्चिमेशिया क्षेत्रस्य वर्तमान स्थितेः समीक्षा, ब्रिक्स मञ्चस्यान्तर्गतं सहयोग विषये तथा भारत ईरान द्विपक्षीय सम्बन्धे चर्चा अभवत्। अस्मिन्नेव क्रमे श्रीडोभालः इथियोपिया देशस्य राष्ट्रिय गुप्तचर एवं सुरक्षा सेवा संस्थानस्य विश्लेषण कार्यकारी निदेशकेन मिलियन लेमा तादेसे महोदयेन सह अपि अमिलत्। विदेश मंत्री डॉ एस जयशंकरः अद्य द्विदिवसीय प्रवासाय मंगोलिया देशं सम्प्राप्तवान्, यस्योद्देश्यं द्वयोः देशयोः मध्ये विशिष्ट सहभागित्वम् इतोपि सुदृढं करणीयमस्ति। एकस्मिन् सामाजिक पटले एकेन सन्देशेन डॉ जयशंकरः अवोचत् यत् अहं मंगोलिया देशे निष्कर्षयुत संवादाय आशावान् अस्मि। अस्य प्रवासस्यान्तर्गतं विदेशमन्त्री मंगोलिया देशस्य शीर्ष नेतृभिः सह मेलनं करिष्यति, अपि च स्वकीय समकक्षया विदेशमन्त्रिण्या बी बाट्टसेट सेग वर्यया सह चर्चां करिष्यति। स्वकीय भ्रमणस्य द्वितीये चरणे विदेशमन्त्री बुधवासरे दक्षिण कोरिया देशं प्राप्स्यति। तत्र सः दक्षिण कोरियायाः विदेशमन्त्रिणा चो ह्युन महोदयेन सह द्विपक्षीय वार्तां विधास्यति। अनेन सहैव सः गुरुवासरे जेजु द्वीपे आयोज्यमाने जेजु फोरम फॉर पीस एंड प्रॉस्पेरिटी इत्याख्ये सम्मेलने मुख्य भाषणमपि प्रदास्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। लखनऊनगरस्य अलीगंजक्षेत्रे एकस्य आपणस्य उपरि कार्यरते कोचिंग इति शिक्षणकेन्द्रे प्रचण्डः अग्निकाण्डः अभवत्, येन छात्रेषु आतंकः उत्पन्नः। केचन व्रणिताः जनाः चिकित्सालयेषु प्रवेशिताः सन्ति। मृतानां संख्या इदानीमपि अस्पष्टास्ति। उत्तरप्रदेशस्य उपमुख्यमन्त्री बृजेशपाठकः तत्र आगत्य स्थानीय प्रशासनेन आरक्षकैः SDRF दलैः च सञ्चाल्यमानस्य उद्धार कार्यस्य निरीक्षणं विहितवान्। संस्थायाः भवनस्य अन्तः अग्निः उद्भूतः तथा द्रुतगत्या प्रसृतश्च, जनाः अन्तः एव अवरुद्धाः अभवन् इति कथ्यते। एषः एकः क्रयणसंकुलम् आसीत् यस्मिन् प्रशिक्षणं क्रीडाक्षेत्रादिकम् आसीत्। अग्निसुरक्षादलानि, आरक्षकाः, जनपद प्रशासनस्य अधिकारिणश्च उद्धारस्य निष्कासनस्य च प्रयत्नान् आरब्धवन्तः। केचन जनाः कोचिंग इत्यस्य शौचालये प्रच्छन्नं भूत्वा आत्मानं रक्षितवन्तः। केचन जनाः प्रथमतलाद् कूर्दयित्वा स्वप्राणान् रक्षितवन्तः। रक्षादलेनापि तान् रक्षितम्। यूके देशस्य प्रधानमन्त्री कीर स्टार्मरः स्वदलस्य वर्धमानस्य आन्तरिकद्वन्द्वे डाउनिंग स्ट्रीट इत्यत्र स्वस्य कार्यावधिं समाप्य लेबर पार्टीति दलस्य नेतुः पदात् सहैव प्रधानमन्त्रिणः पदात् त्यागपत्रस्य घोषणाम् अकरोत्। स्वस्य त्यागपत्र वक्तव्ये श्री स्टार्मरः द्विवर्षात् प्राक् डाउनिंग स्ट्रीट इत्यत्र स्वस्य आगमनं जीवनस्य गौरवपूर्णतमं क्षणत्वेन स्मृतवान्। कोटिशः जनानां जीवनं परिवर्तयितुं लक्ष्यं स्वीकृत्य राजनीतौ प्रविष्टवान् इति सः उक्तवान्।
Every decision I've taken has been about putting the country I love first. That is why I will resign as leader of the Labour Party. I have spoken to His Majesty the King this morning to inform him of my decision. In the case of a contest, this will ensure a new leader is in place before Parliament returns in September. I will remain in post as Prime Minister until the contest is complete.
भारत ऋतु विज्ञान विभागेन अद्य असम मेघालय राज्ययोः कृते अतिवृष्टेः रेड अलर्ट इति रक्तवर्णीया संचेतना उद्घोषिता अस्ति। विभागेन श्वः पर्यन्तम् उपहिमालयीय पश्चिमबंग, कर्नाटक, तेलंगाना, केरलम, गोवा, ओडिशा तथा देशस्य उत्तरपूर्वीय भागस्य पृथक् पृथक् स्थानेषु अतिवृष्टेः पूर्वानुमानमपि ख्यापितम्। अनेन सहैव विभागेन अद्य हरियाणा, चंडीगढ़, दिल्ली, पंजाब, हिमाचल प्रदेश, उत्तराखंड, मध्य प्रदेश, महाराष्ट्र, अंडमान निकोबार द्वीप समूह, जम्मू कश्मीर तथा लद्दाख क्षेत्रेषु विद्युत गर्जनम समेत्य झंझावात तथा तीव्र प्रचंड वायु संभावना च व्यक्तीकृता। अस्य वर्षस्य फीफा विश्वकप क्रीडायाम् अर्जेण्टीना दलम् अद्य रात्रौ अमेरिका देशस्य आर्लिंगटन नगरे ग्रुप जे क्रीडायाम् ऑस्ट्रिया दलं सम्मुखीकरिष्यति। भारतीय समयानुसारं रात्रौ सार्ध दश वादने क्रीडायाः आरम्भः भविष्यति। अन्ते मुख्य वार्ताः पुनः एकवारम्। पश्चिमबंगे भाजपा नेतृत्वे सर्वकारेण प्रथमं पूर्णम् अर्थसंकल्पनापत्रम् उपस्थापितम्। सुरक्षा समाह्वानानां विषये चर्चयितुं नवदिल्ल्याम् अद्य ब्रिक्स राष्ट्रिय सुरक्षा परामर्शदातृणां सम्मेलनं समारब्धम्। आर्थिक सम्बन्धान् इतोपि सुदृढीकर्तुं विदेशमन्त्री डॉ एस जयशंकरः स्वकीयेन समकक्षेण सह चर्चार्थं मंगोलियादेशं सम्प्राप्तवान्। भारत ऋतु विज्ञान विभागेन अद्य असम मेघालय राज्ययोः कृते अतिवृष्टेः पूर्वानुमानं प्रकटितम्। अपि च अस्य वर्षस्य फीफा विश्वकप क्रीडायाम् अर्जेण्टीना दलम् अद्य रात्रौ अमेरिका देशस्य आर्लिंगटन नगरे ग्रुप जे क्रीडायाम् ऑस्ट्रिया दलं सम्मुखीकरिष्यति। इति वार्ताः।